ये भी नमः स्वागतम्। वयं प्रथमतया प्रार्थनां वदामः। प्रिया भगिनी,
हा भगिनि, ॐ सहना भवतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। ॐ सहना भवतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। ॐ सहना भवतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। श्रीगुरुभ्यो नमः। हरिः ॐ।
धन्यवादः भगिनी।
धन्यवादः।
अद्य वयं चित्रभगिन्याः उपस्थापनं शृणुमः।
No, this was not mine. It's Nishtha Mandavesarshani.
Yeah, sorry. Wrong one. Yeah, sorry.
Yeah, no problem. So what I'll do is I'll first do the English translation paragraph-wise, and then we can go into the details. Okay, Nashta Manda Visarpani, ruined Manda Visarpani, that's right, I suppose. Nashta is ruined, right?
Yes.
Kashchana Maharajah Asi, Tasya Shayayam Manda Visarpani Nama Yuka Vasatisma. Sa Yuka Maharajasya Raptam Aswadayanti Sukhena Jeevatisma. Once there was a king. In his bed lived a louse named Manda Visarpani. The louse drank the king's blood and lived peacefully. Ekada Agni Mukha Nam Kaschit Matkunaha Tam Shayayam Agatavan. Tam Drashtva Manda Visarpani Uktavati. Boho Mutkunaha Mutkuna Bhavan Kimartham Atra Agatavan. Bhavata Atra Na Statavyam. Shigra Meva Itaha Gachatu Iti. Once a bedbug named Agnimukha came to her bed. Seeing the bug, Manda Visarpani said, "O bedbug, why have you come here? You should not stay here. Leave this place immediately." Tada Agnimukha uktavan, "Arye, aham bahujananam raktam aswaditvan. Parantu kutrapi madhuram raktam na labdham. Bhavati anumatim dadati chet, एतस्य महाराजस्य मधुरं रक्तं पीत्वा मम जीवनं सार्थकं करोमि इति। देन् अग्निमुख सेड्, ओ रिस्पेक्टेड् लेडी, ऐ हेव् एन्जाय्ड् मेनी पीपल्स् ब्लड् बट् नो वेर् ऐ कुड् गेट् स्वीट् ब्लड्। इफ् यु अलौ मी देन् ऐ विल् टेस्ट् द किङ्ग्स् ब्लड् एण्ड् मै लैफ् विल् बि साटिस्फैड्। मन्दविसर्पणी उक्तवती, भोः अग्निमुख, अहम् अनुमतिं ददामि, परन्तु महाराजः यदा निद्रावशः भवति तदा अहं प्रथमं तस्य रक्तं पिबामि, तदनन्तरम् एव भवता रक्तं पातव्यं, त्वरा न करणीया इति। मन्दविसर्पणी सेड्, ओ अग्निमुख, ऐ विल् गिव् यू द पर्मिशन् बट् वेन् द किङ्ग् स्लीप्स् देन् ऐ विल् ड्रिङ्क् द ब्लड् फस्ट्, आफ्टर् देट् यू केन् ड्रिङ्क् द ब्लड्, डोण्ट् बी इन् अ हेस्ट्। ओके, ऐ विल् डू एस् यू से, एक्सेप्टेड् अग्निमुख। अस्तु अथ तथैव करोमि इति अग्निमुख अङ्गीकृतवान्। किञ्चित् कालान्तरं महाराजः तत्र आगतवान्, शय्यायां सुप्तवान् च। महाराजस्य इतोपि निद्रा न आगता आसीत्। तदानीमेव जिह्वाचापलं निरोद्धम् असमर्थः अग्निमुखः तं दृष्टवान्। After some time, the king came there and slept in the cot. The king could not sleep, unable to control the urge to taste. Agnimukha bit the king. महाराज झटिति शय्यातः उत्थितवान्। सेवकान् आज्ञापितवान्, भोः सेवकाः शय्यायां किम् अस्ति इति भवन्तः शीघ्रमेव पश्यन्तु इति। द क्वीन् क्विक्लि गाट् अप् फ्रोम् द बेड् एण्ड् आर्डर्ड् द सर्वेण्ट्स्, ओ अटेण्डेण्ट्स्, क्विक्लि सी वाट् इस् देर् इन् द बेड्। सर्वे अपि सेवकाः सर्वाणि शय्यावस्त्राणि परिशीलवन्तः। अत्रान्तरे मुत्कुणः मञ्चस्य रन्ध्रं प्रविष्टवान्। सेवकाः वस्त्रमध्ये स्थितां मन्दविसर्पिणीं दृष्टवन्तः, मारितवन्तः च। All the servants checked the bed sheets. Meanwhile, the bug quickly entered into a hole in the bed. The servant saw the louse, Manda Sarpani, lying in the bed sheet and killed her. Evam dushtaya mutkunaya ashrasya danen Manda Visarpani swayam nashta. Ataha pragyehi uchyate dushtebhyah ashraya na datavya iti. By giving asylum to the bed bug, Manda Visarpani herself got ruined. Therefore, it is said that never give asylum to the wicked. Is that right?
Yes, Bhagini.
Okay. So, I'll start with this thing. Kashchana Maharaja Asi, Kashchana Avyayam, Maharaja Namapadam Akaranta Pulling Prathama Vibhakti, Asit क्रियापदं लङ्लकार प्रथमविभक्ति एकवचन तस्य दकारान्त पुल्लिङ्ग्
अत्र क्रियापदं किं कर्तृपदं किं
ओके महाराज इस् कर्तृपदम् आसीत् इस् क्रियापदं तस्य शय्यायां मन्दविसर्पणी नाम युका वसति स्म तस्य दकारान्तपुल्लिङ्ग् तत् शब्दः षष्ठीविभक्ति एकवचन शय्यायां नामपदम् अकारान्तस्त्रीलिङ्गसप्तमी एकवचन मन्दविसर्पणी इस् अ नेम् न सो हौ डु यु से
दट् स्त्रीलिङ्ग
ओके नाम इस् नामपदं तकारान्त नपुंसकलिङ्ग प्रथमविभक्ति एकवचन युका इस् नामपदं वसति क्रियापदं लङ्लका प्रथमविभक्ति प्रथमविभक्ति स्म इस् अव्ययं सा सर्वनामपदं महाराजस्य नामपदम् अकारान्तपुल्लिङ्ग षष्टिविभक्ति एकवचन रक्तं द्वितीयविभक्ति एकवचन आस्वादयन्ति ऐ डोण्ट् नो आस्वादयन्ति एण्ड् ऐ कुडन्ट् फैण्ड् औट् वाट् इट् इस्
ड्रिङ्किङ्ग्
Yeah, that I know, but which is...
Shatrapratiyaha.
Oh, Shatrapratiyaha. Sukhena, Napunsakalinga, Chaturthi Vibhakti, Ekvachan, Jeevati, Kriyapadam. Sma, I think I've already done a Sarvanamapadam. Where next?
No, Sma is Avyayam.
Sma is Avyayam, yeah. एकदा अगेन् इस् अव्ययम्
अग्निमुखम्
किं भगिनि
प्रीवियस् सेण्टेन्स्
रक्तं
कर्मपदं न वदसि
रक्तं कर्मपदं
रक्तं कर्मपदम् ओके एकदा अग्निमुखः नाम कश्चित् मत्कुणः तां शय्यायाम् आगतवान् तो एकदा इस् अव्ययम् अग्निमुख इस् नेम् दे एण्ड् कश्चित् इस् अव्ययं मुत्कुणः इस् अगेन् इस् अव्ययम् अगेन्
मुत्कुणः नामपदम्
ओके नामपदं तां ताम् इस् सर्वनामपदं दकारान्तस्त्रीलिङ्ग द्वितीयवचन एक द्वितीया विभक्ति एकवचन शय्यायाम् अकारान्तस्त्रीलिङ्ग सप्तमी विभक्ति एकवचन आगतवान् तवतु प्रत्यय तं दृष्ट्वा मन्दासर्पणे उक्तवती तम् सर्वनामपदं दकारान्तपुल्लिङ्ग् तत् शब्दः द्वितीयविभक्ति एकवचन दृष्ट्वा क्रियापदं त्वान्तप्रत्यय उक्तवती अगेन् क्रियापदं तवतु प्रत्यय फिर भोः भोः मुत्कुण भोः इस् सम्बोधन देन् भवान् इस् सकारान्तपुल्लिङ्ग् भवत् शब्दः प्रथमविभक्ति एकवचन देन् अत्र आगतवान् अत्र इस् अव्ययम् आगतवान् तव तु प्रत्यय न न स्थातव्यं स्थातव्यं हा न इस् अव्ययं स्थातव्यम् इस् तव्यत् प्रत्यय शीघ्रमेव इतः गच्छतु इति शीघ्रमेव ऐ डोण्ट् नो वाट् थिङ्ग् इट् इस्
इतः
एव ओके शीघ्रम् एव इतः इस् अव्ययं गच्छतु लोट्लका इति इस् अव्ययम् अगेन् तदा उक्तवान् उक्तवान् इस् तवतु प्रत्यय आर्ये इस् सम्बोधन अहम् इस् सर्वनामपदं दकारान्तपुल् दकारान्तस्त्रीलिङ्ग प्रथमपुरुष एकवचन बहुजनानां नामपदं षष्टि बहुवचन रक्तम् अकारान्तपुल्लिङ्ग् द्विवचन द्वितीयविभक्ति एकवचन आस्वादन्ति आस्वादितवान् इस् तवतु प्रत्यय देन् परन् कुत्रापि ऐ डोण्ट् नो वाट् दिस् विल् बि अव्ययम् आर् द सेम् मधुरम् इस् विशेष अव्ययं न मधुरम् इस् विशेषणम् एण्ड् न इस् अगेन् अव्ययं भवती भवत् शब्द स्त्रीलिङ्ग प्रथम भक्ति एकवचन अनुमतिं I'm not sure what was Anumatim, what will come there.
Ditya Bhakti.
Ditya Bhakti, okay. So, Dadami, Kriyapadam. Dadati is Kriyapadam, Langlakar, Dadhatu, Vartamankal. Chet is Avyayam. Etasya, where am I? एतस्य दकारान्तपुल्लिङ्ग् एतत् शब्द षष्टिविभक्ति एकवचन महाराजस्य नामपदं षष्टिविभक्ति एकवचन मधुरं रक्तं विशेषणविशेष्य पीत्वा इस् क्वान्तप्रत्यय मम इस् दकारान्तस्त्रीलिङ्ग् अस्मत् शब्द षष्टिविभक्ति एकवचन जीवनं नामपदम् अकारान्त नपुंसकलिङ्ग् द्वितीयविभक्ति एकवचन सार्थकं नामपदं द्वितीयविभक्ति एकवचन करोमि इस् क्रियापदम् इति इस् अव्ययम् उक्तवती तव तु प्रत्यय अनुमतिं कर्तृपदं कर्तृपदं ददामि इस् क्रियापदं लङ्लकार दधातु परन्तु इस् नामपदं यदा अव्ययं निद्रावशः इस् क्रियापदम् भवती भवत् शब्द स्त्रीलिङ्ग प्रथमपुरुष एकवचन तदा इस् अव्ययम् अहं सर्वनामपदं दकारान्तस्त्रीलिङ्ग प्रथमपुरुष एकवचन प्रथमम् इस् द्वितीयविभक्ति तस्य दकारान्त नपुंसकलिङ्ग तत् शब्द षष्टिविभक्ति एकवचन रक्तं इस् द्वितीयविभक्ति पिबामि इस् क्रियापदम् उत्तमपुरुष एकवचन लट्लकार तदन्तरं नामपदम् एव इस् अव्ययं भवता तकारान्तपुल्लिङ्ग् भवत् शब्दः तृतीयविभक्ति एकवचन पातव्यम् इस् त्वा प्रत्यय त्वरा इस् क्रियापदं पातव्यम् इस् तव्यत् इस् तव्य
तव्यं सोपातव्यं तव्यत्
ओके तव्यं त्वरा इस् क्रियापदं, न इस् अव्ययं, करणीया इस् क्रियापदम्, इति इस् अव्ययम्, अस्तु इस् अव्ययम्, अहम् इस् सर्वनामपदं, दकारान्त स्त्रीलिङ्ग प्रथमपुरुष एकवचन, करोमि इस् क्रियापदम्, अङ्गीकृतवान् इस् तवतु प्रत्यय, किञ्चित् कालान्तरम् इस् अव्ययम्, तत्र इस् नामपदम्, आगतवान्
तत्र
तवतु नामपदम्
किञ्चित् कालान्तरं
किञ्चित्
किञ्चित् इस् यु केन् टेक् इट् अस् अव्ययम् but it is actually kim plus chit plus
kala anantaram
kalaha anantaram
anantaram so can we take the full thing as avayam
no
tatra maharaja
okay then wrong here tatra paham
and kalantaram is the karma padam right
no karma so it
kalantaram is not a karma padam
it won't be a karma padam आगतवान् इस् क्रियापदं
क्रियापदं सोरि क्रियापदम् एण्ड् कर्तृप्रदम् इस् महाराजः
यस्
बिकास् इफ् यु सेट् किञ्चित् कालानन्तरम् इस् कर्मपदं देन् अनन्तरं विल् बि द कर्मपदम् आक्चुलि बिकास् that is what the word is actually there so you can say maharajah anantaram gatavan
okay
so you are splitting kalantaram into kala plus anantaram is it
kim plus chit plus kala plus anantaram
okay शय्यायां सुप्तवान् शय्यायाम् अकारान्तस्त्रीलिङ्ग सप्तमीभक्ति एकवचन सुप्तवान् तवतु प्रत्यय महाराजस्य अकारान्तपुल्लिङ्ग षष्ठी एकवचन निद्रा इस् कर्मपदम् आगता इस् क्रियापदम् तदानीमेव जिह्वा चापलं निरोद्धम् असमर्थं दिस् ऐ डोण्ट् नो हौ वाट् हौ टु आगता आसीत् एक्चुलि बोथम् देट् शुड् बि क्रियापदम्
आगता विल् बि एन् अव्ययम् will be a pratyaya or will be a pratyaya
yeah. agata will be pratyaya
pratyaya
so
okay which pratyaya
right?
yes asit is a kriya
asit is kriya okay and tadani meva jivha chapalam nirodham asamartha so how do I
so jivha chapalam like निरोद्धम् असमर्थः अग्निमुख तं दृष्टवान् हि फेल्ट् लैक् हि जस्ट् हेड् टु डू इट् सो
हि कुडन्ट् कण्ट्रोल् हिस् अर्ज् टु
ऐ थिंक् असमर्थः इस् नो वन् मिनिट् असमर्थः
या असमर्थः इस् द इनकेपबिलिटी अनेबल् टु बाय द वे इस् द बैकग्राउंड
नाउ
गॉन
नाउ नो
Okay, I'm going back on mute.
No problem, you can unmute when you just need to talk.
So I can translate it word by word, but what I'm trying to figure out is...
this will be Visheshanam.
Jivha Chapalam is Visheshanam, is it?
So Agni... So Drishtavan will be Kriyapadam here, Agni Mukha will be Kartripadam, Tam will be Karvapadam.
Yes,
Tam, okay.
And
Drishtavan will be
Tavatu.
Jihwa Chapalam is Tavatu?
No, I said Drishtavan.
Oh.
Drishtavan is Tavatu,
what is
yeah.
Jihwa Chapalam?
I guess, like, Visheshanam.
ओके देन दर्शवान् विल् बि तवतु झटिति शयातः उत्थितवान् सो झटिति विल् बि विशेषणं
habit as avyayam that's what the dictionary says
yeah you could say that
jhatiti uthitavan so it will be visheshanam no
yeah
that's what I have written so visheshan shayatah is akarant strilinga panchami vibhakti ekvachan uthitavan is tavatu pratyay sevakan is dvitiya vibhakti agyapitavan is tavatu pratyay then shayayam is akarant strilinga saptami bhi ekvachati किम् इस् मकारान्त नपुंसक किं शब्द द्वितीय विभक्ति एकवचन अस्ति इस् अस् धातु लट् लकार प्रथम पुरुष एकवचन इति इस् अव्ययम् भवन्तः तकारान्त पुल्लिङ्ग भवत् शब्द प्रथमा विभक्ति बहुवचन शीघ्रम् एव पश्यन्तु विल् बि लोट् लकार प्रथम पुरुष बहुवचन इति हेव् आलरेडी डन् सर्वे इस् अकारान्त पुल्लिङ्ग सर्वे शब्द प्रथमविभक्ति बहुवचन सेवकाः अकारान्त पुल्लिङ्ग सेवकशब्द प्रथमपुरुष प्रथमविभक्ति बहुवचन सेवकाः देन् सर्वाणि सर्वशब्द नपुंसकलिङ्ग प्रथमविभक्ति बहुवचन शय्यावस्त्राणि सर्वशब्द नपुं प्रथमा बहुवचन सर्वाणि सर्वाणि शय्यावस्त्राणि अकारान्त नपुंसकलिङ्ग वस्त्रशब्द प्रथमा बहुवचन परिशीलवन्तः इस् तवतु प्रत्यये अत्रान्तरे this I don't know which pratyay it is atrantare
but in the previous sentence can you tell me which is the karma padam
which sentence
sevakaah sarvani
sarvani shayani parishilante so
shayya vastrani right
ha shayya vastrani will be the
only that sarvani will be an adjective visheshanam no
yes
अत्रान्तरे दिस् विल् बि वाट् विच् दिस् विल् बि प्रत्यय
नो भगिनि
सो मञ्चस्य इस् षष्ठी एकवचन रन्ध्रः द्वितीय एकवचन प्रविष्टवान् इस् तवतु प्रत्यय वस्त्रमध्ये इस् नामपदम् स्थिताम् इस् अगेन् द्वितीयविभक्ति दृष्टवन्तः
वस्त्रमध्ये विल् बि सप्तमी
सप्तमी
ओ ओके न वस्त्रमध्ये हा इस् सप्तमी then drishtavantah and maritavantah both are tavatu pratyay and dushtaya and matkunaya chaturthi vibhakti ekvachan ashrayasya shashti vibhakti ekvachan danena is napunsak linga chaturthi vibhakti ekvachan dana shabda
and danena
Danen is not Tritiya?
Yeah, Danen is Tritiya.
Tritiya, oh, okay. I have written Chaturthi, sorry. Tritiya, okay. And Nashta is Nashta Shabda Pulling, Ekvachan. Dushtebhya is Dushta Shabda Chaturthi Vibhakti Bahuvachan. And Datavya is Tavyat Pratyay, Datavya.
Bhagini, what is the karma padam in evam dushtaya matkunaya ashasya danena mandasarpini swayam nashta?
Swayam nashta.
Is it swayam?
since it's a proverb, sometimes it may not have it.
And what is the meaning of uchyate?
It is said.
What? It's a verb, right? Uchya is the verb.
What do you mean uchya is the verb?
I don't know. The dictionary said uch is a verb. So I don't know what kind of a structure this uchyate is.
It is said, that's what it is. No? Meaning wise, if I say?
It is said. It is a verb.
Oh, it's just a word. Uchyate is just a word?
Verb.
Verb.
Kriya pada.
Yeah.
Okay. Is it the Atmanai padam, right?
Pagana?
Okay, so. I did. I'm done.
Very good, Bhagini.
Good job, Bhagini.
Good job, Bhagini.
Thank you.
Good job.
And Nagendra Mahatya?
In the last sentence, I think there are a few aways, pratyay hiding in the last sentence.
Neena Bhagini is hiding.
What do you mean, Mahodaya?
For example, the Dhatavyaha. Is that a pratyaya?
Yes.
Tavyat pratyaya.
Ashtaya word is also a pratyaya?
No.
Tavyaha is chaturthi.
That is not a pratyaya. That is a nama padam.
What is uchyate?
Said. Kriya padam. Atmanepadi.
Kriya padam.
Atmanepadi.
Okay. Bhagini, I am still having confusion about this Parasmaipadi and Atmanepadi. I don't know what to do about
it. Yeah, we will learn about that, Bhagini.
Okay. Thank you.
Are there any questions? Yatra aga graha patah asit agami saptahe ekanimesh paryantam kim vidashyanti iti chintayantu sarve kritvantah va
आं भगिनि
अस्तु राधा भगिनी भवती प्रथमतया करोतु
किञ्चित् प्रयासं कृतवती कथिता सुन्दरकाण्डं पारायणं करोमि एकं नूतनं पाठं पठामि ह्यः सायं संस्कृत चानल् उपयुक्ते तस्य पारायणं परिसमाप्तं करोमि अद्य चिन्तितवती हनुमान् अपि तस्य दत्त आसीदारावृत बलति इट् इस् डिफिकल्ट् टास्क् ही गेट्स् डिस्ट्रेस्ड् तस्य आत्मविश्वासं विहायतवान् प्लञ्ज्ड् सः मनसैक्यं वचसैक्यं कर्मनैक्यम् उपयुक्ते तस्य असीदारावृतसमृद्धः असीदारावृत इस् डिफिकल्ट् टास्क् हि कम्प्लीटेड् प्रत्ययपठनमपि माम् असीदारावृत दृश्यते अहमपि हनुमानया उपयुक्ते मार्गं स्वीकरणीय एवं प्रयत्नं करोमि इति इस् इट् करेक्ट्
यस् समीचीनं भगिनि इदानीं कः करोति नागेन्द्रमहोदय
अहं न करिष्य कृतवान् भगिनि
अस्तु लक्ष्मी भगिनी
गुरुचरित्रपारायणम् एकविंशतिदिने पठति पठिष्यामि पठति स्टार्टिङ्ग् टुडे सो देट् वुड् बि अच्छ अहम् अच्छ गुरुचरित्रपारायणम् एकविंशतिदिने पठति
समीचीनं भगिनि नीना भगिनी भवती कृतवती वा
न भगिनि किन्तु वाल्यूम् इश्यू अस्ति अहं म्यूट् मध्ये स्थितवती
अस्तु अस्तु सर्वे वर्गे पठितान् प्रति पठितवन्तः वा अथवा न
किञ्चित् ऐडेण्टिफिकेशन् दट्स् इट् भगिनि
अस्तु
डिफिकल्ट् ऐ डोण्ट् नो वै
अस्तु भगिनि
sentences I needed in sentences where I am able to convert it like that and I am able to understand and convert it into English. Until I do that I cannot get the hang of it. I know I'm struggling for this.
Astu bhagini. Astu kinte dapya samkurmah neetum iti kah pratyayah
तुमन् नो
समीचीनम् आरब्धम्
तप्रत्यये
अस्तु मिलित्वा
क्वान्त क्वान्तप्रत्यये
वक्तव्यं
वक्तव्यं
तव्यत्वे
अस्तु ग्रहीतुं समीचीनं चिन्तयन्
शत्रुप्रत्ययः
अन्विष्टवान् मुञ्चन्
मुञ्चन् शत्रुप्रत्ययः
शत्रुप्रत्ययः आरब्धवान् आगत्य
समीचीनं
नीना भगिनी वक्तव्यम् इति तव्यत् प्रत्ययः पृष्टवान् मृताः अथवा मृतः प्रत्ययः भीताः भीताः श्रुत्वा
क्वान्तप्रत्यय श्रुत्वा गत्वा न क्वान्तप्रत्यय
समीचीनम्. अस्तु, उक्तवान् समीचीनम्. प्रस्थितवान् स्थापयित्वा चिन्तयित्वा अस्तु. प्राप्तवान् उपविश्य अस्तु. निमग्नः कृतवान् मृतः न मृतः इति आगतः मत्वा
त्वान्तप्रत्यय
समीचीनम् अस्तु. पठन्
शत्रुप्रत्यय
गच्छन्ति
शत्रुप्रत्यय
समीचीनम् अस्तु. अत्र प्रश्नाः सन्ति वा? अस्तु, इदानीं गीतासोपनं कुर्मः. एकनिमिषः, गीतासोपनं दृश्यते वा? कः पुटसङ्ख्या एकनिमिषः पुटसङ्ख्या पञ्चत्रिंशत् 35 अत्र पठामः. अस्तु, लक्ष्मी भगिनी भवती आचार्यः, नागेन्द्र महोदय भवान् प्रकाशः, राधा भगिनी भवती अशोकः अपि अनिलः. अस्तु, अत्र माते सङ्गोस्तु इति अस्ति. इत्युक्ते किं? तत्र गीतापुस्तके तत्र श्लोकः अस्ति. अस्तु, तत्र श्लोकं कः पठति? दृश्यते वा श्लोकः? कः पठति?
कर्मण्येधिकारस्ते मा फलेषु कदाचन मा कर्मफलहेतु ते सङ्गोस्त्व
तस्य अर्थः अस्ति.
सङ्गः सङ्गोस्तु
मा ते सङ्गः अस्तु अकर्मणि
मा ते
अस्तु
एकनिमिषं भगिनि
मा इति नाट् ते इति योर् सङ्गः अटाच्मेण्ट् अस्तु अनन्तरम् अकर्मणि अत्र प्रश्नाः सन्ति वा तत्र द्वितीयः अध्यायः अस्ति द्वितीयः अध्याये सप्तचत्वारिंशः श्लोकः अस्तु अस्तु इदानीं अत्र वयम् आवश्यकं मास्तु पर्याप्तं धन्यवादः अपि स्वागतं पठामः अस्तु लक्ष्मी भगिनी भवती आरम्भं करोतु
ओके आचार्यः नमो नमः अद्य गीतापठनम् आवश्यकं किम्
अशोकः
अशोकः अनिलः वल्पि राधा भगिनी
आवश्यकं निश्चयेन
आवश्यकम् आवश्यकम्
निश्चयेन आवश्यकम् आचार्य गीतापाठनार्थं किम् आवश्यकं
किं किम् आवश्यकम्
लिपिज्ञानम् आवश्यकं किम्
आम् लिपिज्ञानम् आवश्यकम्
कृष्णफलकम् आवश्यकं किम्
कृष्णफलकं मास्तु
मम उच्चारणदोषः अस्ति भवतः साहाय्यम् आवश्यकम् आचार्य
भयं मास्तु अहं साहाय्यं करोमि
श्लोकानां कण्ठीकरणम् आवश्यकं किं
मास्तु प्रतिदिनं पारायणं पर्याप्तं तेन स्वयमेव श्लोकाः कण्ठस्थाः भवन्ति भवतः गीतापुस्तकम् आवश्यकं किम्
मम मास्तु गोविन्दस्य आवश्यकं मम गृहे व्याख्यानसहितं पुस्तकम् अस्ति आनयामि किम्
मास्तु मूलमात्रं पर्याप्तम्
अस्तु आचार्य धन्यवादः
स्वागतम्
अस्तु इदानीम् एकैकं वाक्यं पठामः तत्र आचार्यः वदति नमो नमः सम्बोधनम् अद्य गीतापठनम् आवश्यकं किम् अद्य इति किम् अव्ययं वा क्रियापदं वा समीचीनम् अनन्तरं किम् आवश्यकं वा इति गीतापठनं अस्तु अशोकः वदति आम् आवश्यकम् निश्चयेन आवश्यकम् आम् आवश्यकम्
निश्चयेन
आवश्यकम् निश्चयेन इति
निश्चयं तृतीयविभक्ति
एकवचनं
निश्चय प्लस् एन्
What, Mahodaya?
Is it a Sandhi, Bhagini?
No, Mahodaya.
It's not a Sandhi, okay.
Ekam padam eva. As. Acharya. Sambodhanam asti. Gita patanartham. Kim kim avashyakam. Acharyah kim badati chitra vagini.
Gita pustakam avashyakam.
गीता पुस्तकम् आवश्यकम्
आवश्यकम्
लिपिज्ञानम् इत्युक्ते किम्
हौ टु रैट्
समीचीनं
भगिनि पठनार्थं वाट् कैण्ड् आफ् अ वर्ड् इस् दट्
लैक् किमर्थं
We did it in workbook, no?
For Kimartam, right? Asta.
For reading Gita, what all is needed? Gita Kimartam.
For this. Like that.
For, okay.
Asta. अनन्तरं कृष्णफलकं
ब्लाक्बोर्ड्
समीचीनं तत्र
ब्लाक्बोर्ड्
अस्ति अस्तु आवश्यकं किम् आचार्यः किं वदति
कृष्णफलकं मास्तु ब्लाक्बोर्ड् इस् नाट् नीडेड्
समीचीनं प्रकाशः किं वदति मम उच्चारण दोषः अस्ति भवतः साहाय्यम् आवश्यकम् आचार्य प्रकाशः किं वदति
ऐ हेव् मै प्रोनौन्सियेशन् इस् फाल्टि अण्ड् ऐ नीड् ऐ नीड् युर् हेल्प्
समीचीनं अनन्तरम् आचार्यः किं वदति
साहाय्यं करोमि डोण्ट् वरि ऐल् हेल्प् यु
समीचीनं अनन्तरं प्रकाशः किं पृच्छति
घटस्थीकरणम् आवश्यकं किं डु ऐ हेव् टु मेमरैस् दि श्लोकास्
श्लोकानाम् इति का विभक्तिः षष्टि बहुवचनं समीचीनम् अनन्तरं अनन्तरम् आचार्यः किं वदति
पारायणं पर्याप्तं
मास्तु प्रतिदिनं पारायणं पर्याप्तम् तेन इति का विभक्तिः तेन स्वयमेव इति किं योगः किं प्रयत्नं कुर्वन्तु
स्वयम् एव
स्वयं योगः एव अस्तु श्लोकाः कण्ठस्थाः भवन्ति अस्तु अनन्तरं किं भवति भवतः गीतापुस्तकम् आवश्यकं किम् मम मास्तु गोविन्दस्य आवश्यकम् इत्युक्ते
ऐ डोण्ट् नीड् इट् बट् गोविन्द
अनन्तरं किं वदति
मम गृहे व्याख्यानसहितं पुस्तकम् अस्ति एक्स्प्लेनेशन्
explanation
though. Anayami kim? Should I bring it?
Acharyah kim vadati?
Mastu moola matram paryaptam. No. Original is enough.
Yeah, original.
Main text is enough.
Main text. Astu acharya, dhanyavadah. Acharyata iti kim rupam?
Swagatam, welcome.
Acharyata sambodhanam.
Acharya sambodhanam.
Swagatam. Astu. Atra prashnah santiva?
No.
Astu.
Bhagini, in our normal conversation, we don't use this name of kim.
Of course we do.
No, in fact, you know, when we have been discussing, we did not use the sentence in this kim form. Avashyakam kim? Avashyakam va, we use it.
Yeah, we can do
both are right, right. No?
Yeah, both are right.
Dvayam api upayujyam kurmaha. What is it? How do you say it? Both can be used?
Kim Bhagini?
Whatever you said in English, can you say it in Sanskrit, Bhagini? Dvayam api upayujyam kurmaha.
Upayogam kartum shaknumaha.
Kartum shaknumaha.
तयोः उपयोगं कर्तुं शक्नुमः. अस्तु, अभ्यासं कुर्मः. कः पठति अथवा का लक्ष्मी न नीना भगिनी भवती पठतु. इट्स् ओके इफ् यु हेव् बेक्ग्रौण्ड् नाय्स्.
ऐ थिङ्क् ऐ हेव् इट् But
Iranim,
no, it's better. Oh, okay.
Yeah.
I just removed my headset. And
oh, okay.
Abhyasaha. Sri Krishnasya matanuhunam kim avashyakam kim mastu iti atra suchitam asti. Etesham saha yena krutika vakyani vadata. The rest of...
Now again the sound is coming.
Okay, going back on you.
Sri Krishnasya matan gunam. Ityukte kim? According to Krishna.
According kim, to what is needed, what is
not needed. Iti suchitam asti.
List is given.
With the help of this. Pratak
Vakyani. Different.
Yeah. Different.
Makes different sentences.
Make different sentences. Atra kim asti?
Klaibhyam.
Atra. Klaibhyam. Ityukte kim asti ekamshaha. Ekamshaha. Aham.
The way Arjuna behaves, that he doesn't want to fight.
Klaibhyam itikve importance.
Yeah. And manliness.
Anantaram shoka itikve affliction. Affliction. Chinta itikve worry.
Worry. Pale adhikara.
Pale adhikara. Not on the results of our action atava. Duties. We mood
bhava.
Confusion. Vyatha. Could be. Vyatha. Pain. Yuddham. War. Sangam. Tyaktva. No attachment. Karma charanam.
Follow duties.
We have to do our duties. Indriya Niyamanam. Chastity.
Yoga.
Indriya Niyamanam.
Manam. What is it?
Chastity.
Control your senses.
Control your senses, right?
Okay.
I think could be both. Yoga Sevanam. Ketikte.
do yoga? Karma yoga, something like
that. I think being religious.
Kind of yoga, that he...
Bhagavad Bhajanam.
Bhagavad Bhajanam.
इदानीं क्लैभ्यं क्लैभ्यम् आवश्यकं वा मास्तु
क्लैभ्यं मास्तु
क्लैभ्यं मास्तु एकनिमिषः तत्र
मास्तु
तत्र भगवद्भजनम् इत्युक्ते इत्युक्ते किं
भगवद्भजनम्
इत्युक्ते किं
चिन्ता मास्तु
शोकः मास्तु चिन्ता मास्तु
मास्तु फले अधिकारः मास्तु विमूढभावः मास्तु मास्तु व्यथा मास्तु
युद्धम् आवश्यकम्
युद्धम् आवश्यकम्
सङ्गत्यक्त्वा
आवश्यकम् कर्माचरणम् आवश्यकम् इन्द्रियनियमनम् इस् आल्सो आवश्यकम्
योगसेवनम्
आवश्यकं भगवद्भजनम्
समीचीनम् अस्तु अत्र प्रश्नाः सन्ति वा
क्लैबियम् इस् चाप्टर् 2 वर्स् 3 शोकः इस् 18.27
I think maybe if you like email the numbers to me then I'll put it in.
All in the chapter 2 Bhagini or the words are in chapter 2?
No. Each one is in a different chapter. I'll email it to Bhagini or I'll share it on our discussion.
You can email it to me.
Sure Bhagini.
And then I'll put each one in here. Then everybody can see. Asta. Asta idanim vayam kriya padanam vishe किञ्चित् पठामः अस्तु इदानीं तत्र अस्तु नीना भगिनी नमस्कारः अस्तु तत्र एतत् सेट् लैन्स् अस्तु कथित् अत्र न शोचति न काङ्क्षति तत्र ऐ डिण्ट् फैण्ड् औट् विच् चाप्टर् इट् वास् बट् न शोचति न काङ्क्षति अस्तु अतः अत्र वयं क्रियापदानां विषये पठामः अत्र लट् लकारः वयं
काङ्क्षति इत्युक्ते किं भगिनि
इवन् शोचति इत्युक्ते किं
शोच ऐ थिङ्क् इस् ग्रीफ् नो ग्रीफ् नो आकाङ्क्षा ऐ थिङ्क् एक्स्पेक्टेशन्
ऐ एम् नाट् ऐ थिङ्क् ओन्लि इफ् ऐ फैण्ड् द श्लोक नम्बर् ऐ केन् लैक् लुक् इट् अप् काङ्ग्
ऐ विल् बी लुक् इट् अप्
नो नो ऐ आल् लुक् इट् अप् ऐ हाव् टु आल्सो नो I have to take to Sanskrit. Did everybody see where I put the how to do it in Sanskrit? I think it now it's like somewhere in this.
Chapter 12, verse 17.
Chapter 12?
Verse 17.
Okay, wait, let me look it up. Because I can look up the meaning for that. Okay. Chapter 2, verse 17.
17, yeah.
Okay.
न्यूनः शक्ति न देष्टि न योषति शोचति न काङ्क्षति.
चाप्टर्
12. शोचति इस् लेमेण्ट्.
ओके.
काङ्क्षति इस् हेङ्कर् फार् गेन्. ओके.
एण्ड् 7, रैट्?
Verse 17, chapter 12, verse 17.
Oh, 17, okay.
17, yeah.
How did you find it, Vagini?
Google. Okay. I just put Kankshati and Gita verse and it came.
Okay. So, first of all, it's Kank plus Kshati, not one full word. Let's see what the meaning is. So, Kankshati.
It says hanker for me.
Na. So, na means neither, shochati, lament, na, nor, kankshati, hanker for pain, gain. Actually, it is one word.
Neither lament nor hanker for gain.
Neither lament nor hanker for gain.
For gain, huh.
I'll put that shloka in later. But now we found the meaning. Then you are the Bhagini. So, in our past puskam, we have learned vayam patitavantaha kriyapadanam ekavachanam bahuvachanam cha. Gita sopane iranim vayam parantu abhyas puskam vayam pratama purushaha api uttama purushaha kinchit patitavantaha. Idanim vayam dvivachanam patamaha api madhyama purushaha. अस्तु इदानीं गच्छति गच्छतः गच्छन्ति
गच्छसि गच्छतः गच्छतः
एकनिमिष एतत् सुलभः करोमि अत्र राम इति शब्दः तत्र अहम् अह औ आह इति दत्तवती किल अत्रापि लेखितुं शक्नुमः तत्र प्रथमपुरुषः अति इति भवति अनन्तरम् अतः
अन्ति
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 असि
अथः अथः आमि आवह
आमि
आवह आमः
आवह आमः अस इदानीं
आवह नो इट विल बी सेकंड विल बी आवह
या सॉरी
सो इन स्कूल वी मेमोराइज दिस एज सीतः अन्ति सीतः थ एंड आमी आवहाम
ओ इदानीं एतत् कुर्वन्तु अत्र
पठति पठतः पठन्ति
पठतुः अस्ति योजयामः चेत् किं भवति चित्रा भगिनी भवति वदतु
पठति पठतः पठन्ति पठसि पठतः पठत पठामि पठावः पठामः
अत्र अल्पप्राणः महाप्राणः भेदः वयं दर्शनीयं किमर्थं चेत् तत्र
द्विवचन
प्रथमपुरुषः वा मध्यमपुरुषः वा इति ज्ञातव्यम् अस्तु इदानीम् अन्य तत्र गम् धातुः भवति परन्तु गच्छति इदानीं लक्ष्मी भगिनी
गच्छति गच्छतः गच्छन्ति गच्छसि गच्छतः गच्छतः गच्छामि गच्छावः गच्छामः
समीचीनम् इदानीं व, इदानीं तिष्ठति नागेन्द्र महोदय
तिष्ठति तिष्ठतः तिष्ठतं तिष्ठन्ति तिष्ठति तिष्ठतः तिष्ठत तिष्ठामि तिष्ठावः तिष्ठामः
एकनिमिषः अस्तु तिष्ठति इति स्था धातु भवति किञ्चित् किञ्चित् जानन्तु पठतु पठति किञ्चित् किञ्चित् कुर्मः चेत् भवन्तः अपि जानन्ति
कं धातु
गच्छति
स्था धातु तिष्ठति
तिष्ठति
कण्ठस्थीकरणं कुर्वन्तु इति नास्ति अस्तु तिष्ठति अनन्तरं किमस्ति वसति वसति इति वस्तातु आम् वस्तातुः हस्तातुः वसति अस्तु अस्तु इदानीं वस्तातुः राधा भगिनी भवती वदतु सर्वाणि रूपाणि
वसति वसत वसन्ति वससि वसतः वसत् वसामि वसावः वसामः
अस्तु इदानीम् अत्र प्रथमपुरुषः अस्ति अत्र प्रथमपुरुषः अस्ति मध्यमपुरुषः उत्तमपुरुषः अस्तु अत्र किं भवति अत्र वयं कोऽपि नामपदं किमपि नामपदं स्थापयामः तत्र आचार्यः गच्छति आचार्यौ गच्छतः आचार्याः गच्छति
गच्छन्ति
परन्तु अत्र त्वं पठसि त्वम् एव किमपि अन्यः नास्ति अत्र वयं कथं वदामः आमीतस्य अहमेव अहम् इति कर्तृपदम् अहमेव कर्तृपदम्
अहम् अवां वयम्
अत्र त्वं युवां
यूयम्
तत्र भवान् भवन्तौ भवन्तः इति वक्तुं शक्नुमः अनन्तरं त्वं युवां
यूयम्
अहम् आवां वयं
वयम्
अस्तु इदानीं वयं उदाहरणानि नान् पठामः तत्र एकनिमिषः अस्तु कति सन्ति अस्तु चित्रभगिनी भवती पञ्चवाक्यानि पठतु उदाहरणमपि अपि
वाय्स् इस् ब्रेकिङ्ग् भगिनि ऐ कान्ट् हियर्
इदानीं भगिनि
नो
She wants you to read the first five, including the example.
Rathah gachyati, rathau gachyatah, rathah gachyanti. Acharyah upadishati, acharyau upadishatah, acharyah upadishanti. Matulah tishtati, matulau tishtatah, matulah tishtanti. Sachivah varnayati, सचिवौ वर्णयतः सचिवाः वर्णयन्ति. व्यूहः अस्ति, व्यूहौ स्तः, व्यूहाः सन्ति.
सैनिकः अपि पठतु.
Should I go on?
सैनिकः अपि.
सैनिकः पश्यति, सैनिकौ पश्यतः, सैनिकाः पश्यन्ति.
अस्तु, समीचीनम्. इदानीं लक्ष्मी भगिनी भवती तत्र प्रथमपुरुषः तस्य उदाहरणानि पूरयतु.
ततः गच्छति. धीरः मुह्यते, धीरौ मुह्यतः, धीराः मुह्यन्ति. स्थितप्रज्ञः
इत्युक्ते किं?
मुह्यन्ति.
मुह्यति इत्युक्ते किं?
मुह्यति,
मुह्यति, मुह्यति इत्युक्ते फेंट इति चिन्तयामि, अथवा फेल् फेल् अथवा फेंट अथवा मिस्टेकन् कन्फ्यूस्ड्
कन्फ्यूस्ड्. स्थितप्रज्ञः अभिनन्दते, स्थितप्रज्ञौ अभिनन्दतः, स्थितप्रज्ञाः अभिनन्दन्ति. भगिनी वदति, भगिन्यौ वदतः, भगिन्यः वदन्ति. गात्रं सीदति, गात्रे सीदतः, गात्राणि सीदन्ति. मुखं शुष्यति, मुखे शुष्यतः, मुखानि शुष्यन्ति. इन्द्रियं हरति, इन्द्रिये हरतः, इन्द्रियाणि हरन्ति.
समीचीनं भगिनि. अस्तु, इदानीं नागेन्द्र महोदय, भवान् उत्तमपुरुषस्य वाक्यानि पठतु.
Maybe there is some background noise, some garden is being cleaned. Let me come back after some time.
Radha Bhagini, Bhavati Patata.
Aham Namami, Avam Namavaha, Vayam Namamaha. Aham Gayami, Avam Gayavaha, Vayam Gayamaha. Aham Ganayami, Avam Ganayavaha, Vayam Ganayamaha. अहम् इच्छामि, आवाम् इच्छावः, वयम् इच्छामः. अहं विन्दामि, आवां विन्दावः, वयं विन्दामः.
समीचीनं
भगिनि. विन्दामि इत्युक्ते का अर्थं,
कः अर्थः? एकनिमिषः. विन्दति इति क्रियापदमस्ति. तत्र फैण्ड् अथवा मेरी इति अस्ति. अकाम्प्लिश्, पर्फार्म्, फील्, नो रिलेशन् देट् मच् टु वन् अनदर्. अस्तु, इदानीं लक्ष्मी भगिनी भवती एव पठतु.
त्वं पठसि, युवां पठतः, यूयं पठत. त्वम् अर्हसि, युवाम् अर्हतः, यूयम् अर्हत. त्वं छात्रः असि, युवां छात्रौ स्तः, यूयं छात्राः स्त. त्वम् उपविशसि, युवाम् उपविशतः, यूयम् उपविशत. त्वं कथयसि, युवां कथयतः, यूयं कथयत. कथयत.
अस्तु, इदानीं अभ्यासं कुर्मः. अस्तु लक्ष्मी राधा भगिनी भवती एकं करोतु, लक्ष्मी भगिनी एकं करोति, अहम् एकं करोमि.
स्यूतः अस्ति, स्यूतौ स्तः, स्यूताः सन्ति, बालः उपविशति.
न, इदानीं लक्ष्मी भगिनी.
बालः अस्ति, बालौ स्तः, बालः उपविशति, बालौ उपविश्यतः, बालाः उपविशन्ति.
अश्वः धावति, अश्वौ धावतः, धावतः अश्वाः धावन्ति. राधा भगिनी.
धेनुः चरति, धेनुचरतः,
धेनुः चरतः
धेन्वः चरन्ति,
धेनवः
चरन्ति.
लक्ष्मी भगिनि.
I can join now.
लक्ष्मी भगिनी पठतु.
फलं पतति फले, पततः फलानि पतन्ति.
नागेन्द्र महोदय.
बालः क्रीडति, बालौ क्रीडतः, बालाः क्रीडन्ति.
नर्तकी नृत्यति, नर्तक्यौ नृत्यतः, नर्तक्यः नृत्यन्ति. राधा भगिनी.
सैनिकः आरोहति, सैनिकौ आरोहतः, सैनिकाः आरोहन्ति.
लक्ष्मी भगिनी.
भक्तः प्रयच्छति, भक्तौ प्रयच्छतः, भक्ताः प्रयच्छन्ति.
नागेन्द्र महोदय.
दुष्टः प्रणश्यति, दुष्टौ प्रणश्यतः, दुष्टाः प्रणशयन्ति.
इदानीं नृपः नृपः तुष्यति, नृपौ तुष्यतः, नृपाः तुष्यन्ति. राधा भगिनी.
एषा कूप्यति, एते कूप्यतः, एताः कूप्यन्ति.
कूप्यन्ति. इदानीं लक्ष्मी भगिनी.
एता शोचते, एतत् सूच्यते, एषा सूच्यते, एतौ सूच्यतः, एते सूच्यन्ते.
समीचीनं.
शोचतः
शोचन्ति.
अत्र प्रश्नाः सन्ति वा?
नास्ति भगिनि.
मीनिङ्ग् फार् ईच् आफ् द वर्ब्स् ऐ थिङ्क् द सम् आफ् द meanings you do not know, right?
Yeah, the last one.
Varnayati, I don't know. Sajeevah varnayati.
I will send the meanings for that. So, we know asti, upavishati, dhavati, patati, kreedati, nrityati, kupyati. I think Lakshmi Bhagini, you asked for shochati, right?
Yeah, the last one should be eshaha, shochati.
Shine athava grief.
Yeah.
Grief.
Lament. Anantaram. Tushyati. Itukte satisfy. Arohati. Itukte.
Climb.
Charati.
Graze.
Asu. Iranim. Ekramsha. अस्तु अहं
पिबति
किं भगिनि पिबति सीदति इत्युक्ते सिट् डौन् अथवा वाच् अथवा डिस्पेर्
वेरि वैड्
आम् आम् अस्तु प्रश्नाः न सन्ति चेत् शान्तिमन्त्रं वदामः अत्र स्थगयामः कः वदति
अहं वदामि सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्तिः 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 ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्तिः 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 ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्तिः 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 हरिः ॐ श्रीगुरुभ्यो नमः
धन्यवादः भगिनी